ஓம் நமோ பகவதே ஸ்ரீரமணாய. ஸ்ரீ அருணாச்சல மகாத்மியம் ப்ராரப்யதே. பிரஸ்தாவனா: வேதார்த்த பிரகாசகேஷு புராணேஷு ஸ்காந்தம் நாம புராணம் த்விவிதம். ஏகம் மாஹேஸ்வர வைஷ்ணவ பிராம்ம காஷி அவந்திய நாகர பிரபாசேதி சப்தகண்டாத்மகம் மகாபுராணம். அன்யம் சனத்குமார சூத சாங்கர வைஷ்ணவ பிராம்ம சௌரமிதி ஷட் சம்ஹிதாத்மகம் உபபுராணம் இதி. தாதஷ மகாபுராணேஷு கிரந்தாதிக்கேன அக்ரகணிதே ஸ்ரீ ஸ்காந்தே மகாபுராணே ஏகாஷீதி சாஹஸ்யாம் சம்ஹிதாயாம் பிரதமே மாஹேஸ்வர கண்டே கேதார கௌமாரிகா கண்டானந்தரம் திருத்தீயம் ஸ்ரீ அருணாச்சல மகாத்மியம் பிரம்ம சனக சம்வாத ரூபம் த்ரயோதசாத்யாத்மகம் பூர்வார்த்தம். நந்திகேஸ்வர மார்க்கண்டேய சம்வாத ரூபம் சதுர்விஷத்யாத்யாத்மகம் உத்தரார்த்தமிதி விபாக துவய பூஷிதம் திருஷ்யதே. சம்வாத பேதேன கதாபாகஸ்ய க்வசித்து சாத்ருஷ்யே த்ருஷ்யமானேபி பௌனருக்திய தோஷோ ந சங்கனீய இதி பாடம் மனசி நிதாய ஏததருணாச்சல மகாத்மியம் படனீயம் சுதீபிஹி இத்யவதேயம். பூர்வார்த்தம். ஸ்ரீ கணேஷாய நமஹ. தலாடே த்ரைபுண்ட்ரீ நிடில க்ருத கஸ்தூரி திலகஹ ஸ்புரன்மாலாதாரஹ ஸ்புரித கடி கௌபீன வசனஹ ததானோ துஸ்தாரம் சிரசி பணிராஜம் சசிகலாம் பிரதீப சர்வேஷாம் அருணகிரியோகி விஜயதே. வியாச உவாச: அதாஹுர் முனயஸ் சூதம் நைமிஷாரண்ய வாசினஹ அருணாச்சல மாஹாத்மியம் த்வத்த சுஸ்ரூஷவோ வயம் தான் மாஹாத்மியம் வதேத்யுக்தஹ சூத ப்ரோவாச தான் முனி. சூத உவாச: ஏததர்த்தம் சதுர்வக்த்ரம் பப்ரச்சசனகப்புரா ஸ்ருணுதாவஹிதா யூயம் தத்வோ வக்ஷ்யாமி சாம்ப்ரதம் யதா கர்ண்யயதாம் பக்த்யா நராணாம் பாபநாசனம் சத்யலோகே ஸ்திதம் பூர்வம் ப்ரஹ்மாணம் கமலாசனம் சனக பரிபப்ரச்ச பிரணத பிராஞ்சலிஸ்தித. சனக உவாச: புவனாதார தேவேஷ வேத வேத்ய சதுர்முக ஆசீதசேஷ விஜ்ஞானம் பிரசாதாத் பவதோ மம பவத் பக்தி விபூத்யாமே சோதிதே சித்ததர்ப்பணே பிம்பதே சகலம் ஜ்ஞானம் சக்ருதேவோபதேஷதஹ சாரார்த்தம் வேத வேதானாம் சிவஜானமனாகுலம் லப்தவானஹமத்யந்தம் கடாக்ஷைஸ்தே ஜகத்குரோ லிங்கானி புவி சைவானி திவ்யானி ச க்ருபாநிதே மானுஷானி ச சைத்பானி பௌதானி சுரநாயகா யல்லிங்கமமலம் திவ்யம் அபரிச்சேத்ய நவைபவம் ஸ்வயம் புஜாம் பவே த்வீபே தைஜசம் தத்வதஸ்வமே. நாமஸ்மரண மாத்ரேண யத் பாதக விநாசனம் சிவசாரூப்யதம் நித்யம் மஹ்யம் வததயாநிதே. அநாதி ஜகதாதாரம் யத்தேஜஸ்ஸைவமவ்யயம் யச்ச த்ருஷ்ட்வா க்ருதார்த்த ஸ்யாத் தன்மஹ்யமுபதிஷ்யதாம் இதி பக்தி மனஸ்தஸ்ய கௌதூஹல சமன்விதம் வாக்யமாகர்ண்ய பகவான் பிரசசாத தபோநிதி. தத்யௌ ச சுசிரம் சம்பும் பங்கஜாசன சம்ஸ்திதஹ அந்தரங்க சுகாம்போதி மக்னசேதா சதுர்முகஹ த்ருஷ்ட்வா யதா புரா த்ருஷ்டம் తేజస్తంభమయం శివం ఉత్తీర్ణ సకలాధారం నకించిత్ ప్రత్యబుధ్యత పునరాజ్ఞాం శివాల్లబ్ధాం అనుపాలయితుం ప్రభుః నిర్వర్త్య హృదయం యోగాత్ సస్మారసుతమానతం శివదర్శన సంజాత పులకాంకిత విగ్రహః ఆనందబాష్పవన్నేత్రః సగద్గదమభాషత బ్రహ్మోవాచ అంతఃసంస్మారితఃపుత్ర భవతాహం పురాతనం శివయోగమనుధ్యాయన్ నస్మార్షం తవ చాదరాత్ శివభక్తి పరాజాత తపోభిర్బహుభిస్తవ తయా మదీయం హృదయం యావర్తితమివ క్షణాత్ పావయంతి జగత్సర్వం చరితైస్తే నిరాకులైః ఏషాం సదాశివే భక్తిః వర్ధతే సార్వకాలికీ సంభాషణం సహావాసః క్రీడా చైవ విమిశ్రణం దర్శనం శివభక్తానాం స్మరణం చాద్యనాశనం శ్రూయతామద్భుతం శైవం ఆవిర్భూతం యథా పురా అవ్యాజ కరుణాపూర్ణం అరుణాద్ర్యభిధం మహః అహం నారాయణ శ్రేభౌ జాతౌ విశ్వాధికోదయాత్ బహుస్యామితి సంకల్పం వితన్వానాత్ సదాశివాత్ స్వభావేన సముద్భూతౌ వివదంతౌ పరస్పరం నచ శ్రాంతౌ నియుధ్యంతౌ సాహంకారౌ కదాచన పరస్పరం రణోత్సాహం ఆవయోరతిభీషణం ఆలోక్య కరుణామూర్తిః అచింతయతథేశ్వరః కిమర్థమనయోర్యుద్ధం జాయతే లోకనాశనం అహం సృష్టాహం పాతేతి వివాదమధిక స్తుషోః సమయేస్మిన్ స్వయం లక్ష్యో ముగ్ధయోరనయోర్భృశం యది యుద్ధం నరోత్స్యామి తదా స్యాద్ భువనక్షయః వేదేషు మమ మాహాత్మ్యం విశ్వాధికతయా శ్రుతం న జానాతే ఇమౌ ముగ్ధౌ క్రోధతో గలిత స్మృతి సర్వోపి జంతురాత్మానం అధికం మన్యతే భృశం అమతాన్య సమాధిక్యః త్వధ పతతి దుర్మతిః యద్యహం క్వాపి భువనే దాస్యామి ఇతి మాత్మనః తదా తద్రూప విజ్ఞానాత్ స ఆత్మా సోపి మామియాత్ ఇతి నిశ్చిత్య మనసా స్వయమేవ సదాశివః ఆవయోర్యుద్ధయోర్మధ్యే వహ్నిస్తంభం సముద్యతః అతీత్య సకలాన్ లోకాన్ సర్వతోగ్నిరివజ్వలన్ అనాద్యంతతయా చాథ దృగార్తో సంయతిష్టతాం తేజస్తంభం జ్వలంతంతం ఆలోక్య శిథిలాశయౌ ఆవయోః పురతో జాత వాణీ చాప్య శరీరిణీ కిమర్థం బాలకౌ యుద్ధం కల్ప్యతే మూఢమానసౌ యువయోర్ బలవైషమ్యం శివ ఏవ వివేక్ష్యతే తేజస్తంభమయం రూపం ఇదం శంభోర్వ్యవస్థితం ఆద్యంతయోర్యది యువాం ఈక్షిషాథాం బలాధికౌ ఇతి తాం గిరమాకర్ణ్య నియుద్ధాద్విరతౌ తదా అహం విష్ణుశ్చ గతిం అన్విచేతుం తద్వ్యవస్థితౌ అగ్నిస్తంభమయం రూపం శంభోరాద్యంతవర్జితం ఆలోకితుం వ్యవసితౌ ఆవామాద్యంతభాగతః బింబితం వ్యోమగం చంద్రం యథా బాలౌ జిఘృక్షతః తథైవావాం సముద్యుక్తౌ పరిచ్ఛేత్తుం చ తన్మహః అథ విష్ణుర్మహోత్సాహాత్ కూడోభూత్ సుమహావపుః తన్మూల విచయాయాచ్చ భూమి గర్భం వ్యదారయత్ అహం చ హంసతాం ప్రాప్తో మహావేగః సముత్పతన్. దిదృక్షస్త శిరోభాగం వ్యదూర్ధ్వమగాహిషం అధోధో దారయన్ క్షోణిం అశేషామపి మాధవః ఆవిర్భూతమివాధస్తాత్ అగ్నిస్తంభమవైక్షత అనేకకోటివర్షాణి విచిన్వన్నపి తేజసః అపశ్యన్నాదిమక్షయ్యం ఆర్తరూపః సవిహ్వలః విశీర్ణదంశ్రవలయో విగలత్సంధిబంధనః రమాతురస్తృషాక్రాంతో నూయాతు మశకద్ధరిః వారాహం రూపమతులం సంధారయితుమక్షమః విహంతుమపి విశ్రాంతో విషసాదరమాపతిః అచింతయదమయాత్మా పరిశ్రాంతశరీరవాన్ గలతశ్రీః ప్రియాశ్రాంతః శరణ్యం శివమాశ్రయత్. ధింగమేదం మహన్మౌఢ్యం అహంకార సముద్భవం యేనాహమాత్మనో నాథం ఆత్మానం నావబుద్ధవాన్. అయం హి సర్వవేదానాం దేవానాం జగతామపి మూలభూత శివ సాక్షాత్ మూలమస్య కథం భవేత్. అస్మాదేవ సముద్భూతోస్మి అహమాద్యంతవర్జితాత్. యన్మయాన్వేష్టుమారబ్ధం శివం పశువపుర్ధృతా అవ్యాజకరుణాబంధోః పితుశంభో ప్రసాదతః పునరేవేద్రుశీ లబ్ధా మతిర్మే స్వాత్మబోధిని. స్వయమేవ మహాదేవః శంభుర్యం పాతుమిచ్ఛతి. తస్య సద్యో భవేద్ జ్ఞానం అనహంకారమాత్మజం నశక్నోమి పునః కర్తుం పూజామస్య జగద్గురోః. నివేదయామి చాత్మానం శరణం యామి శంకరం. ఇతి దధ్యౌ శివం విష్ణుః స్తుత్యామర్పితచేతనః సత్ప్రసాదాద్ భూతపతేః పునరేవోద్ధృతః క్షితౌ. అహం చ గగనే భ్రామ్యం అనేకానపి వత్సరాన్. ఆఘూర్ణమాననయనః శ్లతపక్షశ్రమం గతః ఉపర్యుపరి చాపశ్యం జ్వలనం పురత స్థితం. తేజస్తంభ స్థూలలింగం శైవం తేజస్సురార్చితం. ఆహుస్మ కేచిదాలోక్య సిద్ధాస్తేజోంశ సంభవాః నిత్యాంశంభోః పరాం కోటిం దిదృక్షుం మాం కృతోద్యమం. అహోయం సత్యముగ్ధత్వం అద్యాపి చికీర్షతి. ఆసన్న దేహ పాతోపి నాహంకారోస్య వైగతః. విశీర్యమాణ పక్షోయం శ్రాంత్వా విభ్రాంతలోచనః. అపార తేజసి వ్యర్థో విమోహోయం భవిష్యతి. ఏవం వ్యాకుల చిత్తోయం క్రోడరూపీ జనార్దనః. వ్యావర్తితః శివేనైవ నిర్వ్యాజ కరుణాజుషా. ఈదృశాం బ్రహ్మముఖ్యానాం సురాణాం కోటి సంభవః. యత్తేజ పరమాణుభ్యః తస్య పారం దిదృక్షతే. స్వాత్మనో యోగతో ధ్యాత్వా తమయే భగవాన్ శివః. యది బుద్ధిం దదాత్యస్మై తస్య నశ్యేదహం క్రియా. ఇత్యేవం వదతాం తేషాం సిద్ధానాం సదయం వచః. ఆకర్ణ్యశీర్ణహంకారో యహమాత్మన్యచింతయం. నవేదరాశి విజ్ఞానాత్ తపస్తీర్థనిషేవణాత్ ಸಂಜಾಯತೆ ಶಿವಜ್ಞಾನಂ ಅಸ್ಯೈವಾನುಗ್ರಹಾದೃತೇ ಶೀರ್ಣೋಪಿ ಪಕ್ಷಯುಗಲೇ ಸೀದತ್ಯಂಗೇ ಹ್ಯಚಂಚಲೇ ಪುನರುತ್ಸಹತೆ ಚೇತಃ ಸ್ವಾಹಂಕಾರಸ್ಯ ಸಂಗ್ರಹೇ ಧಿಂಗಾಮಹಂ ಕ್ರಿಯಾಕ್ರಾಂತಂ ಅನಾತ್ಮಬಲವೇದಿನಂ ಶಿವಾರ್ಪಿತಮನಸ್ಕೇಭ್ಯಃ ಸಿದ್ಧೇಭ್ಯಃ ಸತತಂ ನಮಃ ಯೇಷಾಂ ಸಂಸರ್ಗಲಬ್ಧೇನ ತಪಸಾ ಶೋಧಿತಾಶಯಃ ಶಿವಮೇನಂ ವಿಜಾನಾಮಿ ಸ್ವಾತ್ಮಹೇತುಂ ಪುರಸ್ಥಿತಂ ಯತ್ಪ್ರಸಾದೋಪಲಬ್ಧೇನ ವಿಭವೇನ ಸಮನ್ವಿತಾಃ ದೇವಾಃ ಸರ್ವೇ ಭವಿಷ್ಯಂತಿ ಸತತಂ ಶಮಿತಾರಯಃ ಯಸ್ಯ ವೇದಾ ನ ಜಾನಂತಿ ಪರಮಾರ್ಥಂ ಮಹಾಗಮೈಹಿ ತಮೇವ ಶರಣಂ ಯಾಮಿ ಶಂಭುಂ ವಿಶ್ವವಿಲಕ್ಷಣಂ ಅವಾದಿಶಂ ಅಥಾಭಾಷ್ಯಂ ವಿಷ್ಣುಂ ಕಮಲಲೋಚನಂ ಲಬ್ಧದೇಹ ಶಿವಂ ಭಕ್ತ್ಯಾ ಸಂಶ್ರಿತಶ್ಚಂದ್ರಶೇಖರಂ ಅಹೋ ಕಿಮಿದಂ ಆಶ್ಚರ್ಯಂ ಅಗತಂ ಶೌರ್ಯಶಾಲಿನಾಂ ಶಂಭುಮಾಯಾ ಸಮುದ್ಭೂತಂ ಅಹಂಕಾರಮುಪಾಶ್ರಿತೋ ಆವಾಂ ಪರಸ್ಪರಂ ಯುದ್ಧಂ ಆಕರ್ಣ್ಯ ವಿಪುಲಂ ಮಹತ್ ಸಯೇವ ಶಂಕರಸರ್ವಂ ಅಹಂಕಾರಮಥಾವಯೋ ಪಾಹರದಮೇಯಾತ್ಮ ಸ್ವಮಾಹಾತ್ಮ್ಯ ಪ್ರಕಾಶನಾತ್ ತಿಮೀಶ್ವರಮಾನತಂ ಸುರೈಹಿ ಅನಲಸ್ತಂಭಮಯಂ ಸದಾಶಿವಂ ಅಭಿಪೂಜಯಿತುಂ ಪ್ರವರ್ತತೆ ಅಭವೇದ್ವೈಭವಸಾಗರಸ್ಯ ನೌಃ ಇತಿ ಪ್ರಥಮೋಧ್ಯಾಯಃ ಅಥ ದ್ವಿತೀಯೋಧ್ಯಾಯಃ ಬ್ರಹ್ಮೋವಾಚ ಅಥಾಹಮುಚ್ಚರನ್ ವೇದಾನ್ ಅಶೇಷೈರ್ವದನೈಃ ಶಿವಂ ಅಸ್ತೌಷಂ ಭಕ್ತಿ ಸಂಪೂರ್ಣಂ ಕೃತ್ವಾ ಮಾನಸಮರ್ಚನಂ ನಮಃ ಶಿವಾಯ ಮಹತೇ ಸರ್ವಲೋಕೈಕಹೇತವೇ ಏನ ಪ್ರಕಾಶ್ಯತೆ ಸರ್ವಂ ಧ್ರಿಯತೇ ಸತತಂ ನಮಃ ವಿಶ್ವವ್ಯಾಪ್ತಮಿದಂ ತೇಜಃ ಪ್ರಕಾಶಯತಿ ಸಂತತಂ ನೇಕ್ಷಂತೇ ತ್ವದ್ದಯಾಹೀನಾ ಜಾತ್ಯಂಧಾ ಭಾಸ್ಕರಂ ಯಥಾ ಭೂಲಿಂಗಮಮಲಂ ಹೇತತ್ ದೃಶ್ಯಮಧ್ಯಾತ್ಮಚಕ್ಷುಷಾ ಅಂತಸ್ಥಂ ವಾ ಬಹಿಸ್ಥಂ ವಾ ತ್ವದ್ಭಕ್ತೈರನುಭೂಯತೆ ಅಪರಿಚ್ಛೇದ್ಯಮಾಕಾರಂ ಅಂತರಾತ್ಮನಿ ಯೋಗಿನಃ ತದೇತತ್ತವ ದೇವೇಶ ಜ್ವಲಿತಂ ದರ್ಪಣೋ ಯಥಾ ಅಥವಾ ಶಾಂಕರೀ ಶಕ್ತಿಃ ಸತ್ಯಾಣೋರಪ್ಯಣೀಯಸಿ ಮತ್ತೋ ನಾನ್ಯತರಃ ಕಶ್ಚಿತ್ ಯನ್ಮಯ್ಯಪಿ ವಿಲೀಯತೆ ಅನುಸ್ತೆ ಕರುಣಾಪಾತ್ರಂ ಮಹತ್ವಂ ಧ್ರುವಮಶ್ನುತೆ ನಾಧಿಕೋಸ್ತಿ ಪರಸ್ತತ್ವೋ ನಮತ್ತೋಪಿ ತ್ವದಾಶ್ರಯಾತ್ ತ್ವಯ್ಯರ್ಪಿತಂ ಮನಸ್ತತ್ವೋ ನ ವಿಯೋಗಮಪೇಕ್ಷ್ಯತೆ ವಾಚಃ ಕಥಂ ಪ್ರವೃತ್ತಿ ಸ್ಯಾತ್ ತವ ವೈಭವ ಕೀರ್ತನೆ ವಯಮೀಶ ಮಹಾದೇವ ಪ್ರಸೀದ ಭುವನಾಧಿಕ ಆದಿಶ ಪ್ರಯತಂ ಭಕ್ತಂ ಅಪೇಕ್ಷಿತ ನಿಯುಕ್ತಿಷು ಇದಂ ವಿಜ್ಞಾಪ್ಯ ವಿನಯಾತ್ ನಮಸ್ಕೃತ್ವಾ ಪುನಃ ಪುನಃ ಪ್ರಾಂಜಲಿರ್ದೇವದೇವೇಶಂ ನ್ಯಶೀದಂ ಸವಿದೇ ವಿಭೋಃ ಅಥ ವಿಷ್ಣುರ್ನವಾಂಬೋಧ ಗಂಭೀರಧ್ವನಿರಭ್ಯಧಾತ್ ವಾಚಕೃತಾರ್ಥಾನ್ ಭೂಯಃ ಶುಕ್ಲಾಶಾಂಕರಕೀರ್ತನೈಃ ಜಯ ತ್ರಿಭುವನಾಧೀಶ ಜಯ ಗಂಗಾಧರ ಪ್ರಭೋ ಜಯನಾಥ ವಿರೂಪಾಕ್ಷ ಜಯ ಚಂದ್ರಾರ್ಥಶೇಖರ ಅವ್ಯಾಜಮಮಿತಂ ಶಂಭೋ ಕಾರುಣ್ಯಂ ತವ ವರ್ಧತೆ ಯೇನ ನಿದ್ಧೂತಮಖಿಲಂ ಭಕ್ತೇಷು ಜ್ಞಾನಮಾಹಿತಂ ಪಾಲನಂ ಸರ್ವವಿದ್ಯಾನಾಂ प्रापणं भूति संचयैः पुराणं च सपुत्राणां पितुरेव प्रवर्धनम् यतानामपि मूर्तीनां एकामपि नवैस्तवैः स्तोतुं न शक्नुमे शान समवायस्तु किं पुनः त्वमेव त्वामलं वेत्तुं यदि वा त्वत्प्रसादतः प्रमरः कीटमाकृष्य स्वात्मानं किं न जानयेत् देवास्त्वदंश सम्भूति प्रभवो न भवन्ति किम् अप्यायस्याग्निकीलस्य दाहशक्तिर्न किम् भवेत् देशकालक्रियायोगात् यथाग्नेर्भेदसम्भवः तथा विषयभेदेन त्वमेकोऽपि विविध्यस्ते अनुग्रहपरो देव मूर्तिम् दर्शय शङ्कर आवयोरखिलाधार नयनानन्ददायिनीम् एवम् प्रणमतोर्देवः श्रद्धाभक्तिसमन्वितम् प्रससादपरम् शम्भुः स्तुवतोरावयोर्द्वयोः तेजस्तम्भात् पुनस्तस्मात् देवश्चन्द्रार्धशेखरः आविर्बभूव पुरुषः कपिलः कालकन्धरः परशुम्बालहरिणम् करैरभयविश्रमौ दधानः पुरुषो वादीत् पुत्रौ आवामिति प्रभुः परितुष्टोऽस्मि युवयोः भक्त्या युक्तात्मनोर्मयी भवतम् सर्वलोकानाम् सृष्टिरक्षाधिपौ युवाम् युवयोरिष्टसिद्ध्यर्थम् आविर्भूतोऽस्म्यहम् यतः वरम् वृणुतमन्यम् च वरदोऽहमुपागतः इति देवस्य वचनात् सुप्रीतौ च कृताञ्जली विज्ञापयामासिवतौ स्वं स्वमर्थम् पृथक् पृथक् अहम् मन्त्रैः शिशुप्रायम् जगत्त्रयविधायकः संस्तुवन् वैदिकैर्मन्त्रैः ईशानमपराजितम् तमस्येहमिदम् रूपम् शश्वद्वरदमीश्वरम् तेजोमयम् महादेवम् योगिध्येयम् निरञ्जनम् आपूर्यमाणम् भवता तेजसा गगनान्तरम् परिपृच्छय दुरावासः क्षणादेव भविष्यति सिद्धचारणगन्धर्वा देवाश्च परमर्षयः नावसन् दिवि सञ्चारम् लभेरम् स्तेजसा तव द्वीच सकला चैव तप्यमाना तवौजसा चराचरसमुत्पत्ति क्षमा नैव भविष्यति उपसंहृत्य तेजस्वम् अरुणाचलसंज्ञया भवस्तावर लिङ्गत्वम् लोकानुग्रहकारणात् ज्योतिर्मयमिदम् रूपम् अरुणाचलसंज्ञितम् एनमन्ति नरा भक्त्या ते भवन्त्यमराधिकाः देवन्ताम् सकलालोकाः सिद्धाश्च परमर्षयः गणाश्च विविधा भूमौ मानुषम् भावमास्थिताः दिव्यारामसमुद्भूता कल्पकाद्याः सुरद्रुमाः देविनस्त्वाम् प्ररोहन्तु भरिता विविधैः फलैः दिव्यौषधिगणाः सर्वे सिंहाद्या मृगजातयः प्रशान्ताः परिवर्तन्ताम् पापकल्मषनाशनम् अयनद्वयभिन्नेन गमने नापि संयुतः न लङ्घयिष्यति रविः शृङ्गम् लिङ्गतनोस्तव दिव्यदुन्धुभिशङ्खानाम् घोषैपुष्पौघवृष्टिभिः सेवितो भवदेवत्वम् सरो नृत्यगीतिभिः अमरत्वम् च सिद्धत्वम् రససిద్ధీశ్చ నివృతిం లభతాం మానుషానిత్యం తత్సన్నిధిముపాగతాః ఈశత్వం చ వశిత్వం చ సౌభాగ్యకాలవంచనం త్వామాశ్రిత్య నరాః సర్వే లభతామరుణాచలా. సర్వావయవదానేన సర్వవ్యాధి వినాశనాత్ సర్వాభీష్ట ప్రదానేన దృశ్యో భవ మహీతలే. తథేతి వరదం దేవాం అరుణాద్రిపతిం శివం ప్రణమ్య కమలానాథః ప్రార్థయన్ ఇదమబ్రవీత్. ప్రసీద కరుణాపూర్ణ శోణశైలేశ్వర ప్రభో మహేష సర్వలోకానాం హితాయ ప్రకటోదయ. యదాహం త్వాముపాశ్రిత్య జగద్రక్షణ దక్షిణః శ్రీపతిత్వమనుప్రాప్త తదా భక్తా భవంతు తే. నాల్పపుణ్యైరుపాస్తే తత్ రూపం మహదద్భుతం మయాజ బ్రహ్మణా చైవం అదృష్టపదశేఖరః. ప్రదక్షిణ నమస్కారైః నృత్యగీతైశ్చ పూజనైః త్వామర్చయంతి యే మర్త్యాః కృతార్థాస్తే గతాం హసః. ఉపహారైస్తతార్చనైః త్వామర్చయంతి మనుజాః సార్వభౌమా భవంతు తే. ఆరామం మండపం చాపి కూపం విధి విశోధనం కుర్వతామరుణాద్రీశం సన్నిధానే పునర్భవా. అంగ ప్రదక్షిణం కుర్వన్ అష్టైశ్వర్య సమన్వితః అశేష పాతకైః సద్యో విముక్తో నిర్మలాశయః. ఆవామప్య విముంచంతౌ సదా త్వత్పాద పంకజం ధ్యాతవ్యం మనుజైః సర్వైః తవ సన్నిధిమాగతైః. తథాస్త్వితి వరం దత్వా విష్ణవే చంద్రశేఖరః అరుణాచల రూపేణ ప్రాప్తస్థావర లింగతాం. తైజసం లింగమేతద్ధి సర్వలోకైక కారణం అరుణాద్రిరితి ఖ్యాతవ్యం దృశ్యతే వసుధాతలే. యుగాంత సమయే క్షుబ్ధైః చతుర్భిరపి సాగరైః అపి నిర్మగ్నలోకాంతైః స్పృష్టాంతిక భూతలం. గజ ప్రమాణై పృషతైః పూరయంతో జగత్రయం కరాద్యా మహామేఘ విశ్రాంతా యస్య సాముని. ప్రవృత్తే భూత సంహారే ప్రకృతౌ ప్రతిసంచరే భవిష్యత్ సర్వ బీజాని నిషేదుర్యత్ర నిశ్చయం. మయా చాహూయమానేభ్యః ప్రళయానంతరం పునః యత్పాదసేవి విప్రేభ్యో వేదాధ్యయన సంగ్రహః. సర్వాసామపి విద్యానాం కళానాం శాస్త్ర సంపదాం ఆగమానాం చ వేదానాం యత్ర సత్యవ్యవస్థితిః. యద్గుహా గహ్వరాంతస్థ మునయః శంసితవ్రతాః జటినః సంప్రకాశేతే కోటిసూర్యాగ్నితేజసః. పంచబ్రహ్మ మయై మంత్రైః పంచాక్షరవపుర్ధరైః ఆకారపీఠికారూఢో నాదాత్మాయః సదాశివః. అష్టభిశ్చ సదాలింగైః అష్టదిక్పాలపూజితః అష్టమూర్తితయాయోయం అష్టసిద్ధిప్రదాయకః. యత్ర సిద్ధాస్తథా లోకాన్ స్వాన్ స్వాన్ ముక్త్వా సురేశ్వరాః అపేక్షంతే స్థితా ముక్తిం విహాయ కనకాచలం. ఏవం వసుంధరా పుణ్య పరిపాక సముచ్చయః అరుణాద్రిరితి ఖ్యాతో భక్త భక్తి వరప్రదః. కైలాసాన్ మేరు శిఖరాత్ ఆగతైః దేవసంచయైః పూజ్యతే శోణశైలాత్మా शम्भुस्सर्ववरप्रदः इति कमलज वक्त्र पद्मजातम् मुदितमनाः सनको निशम्य भक्त्या विरचित विनय प्रणम्य पुत्रः पितरमपृच्छत शेष वेदसारम् इति द्वितीयोऽध्यायः।
ओम् अथ तृतीयोऽध्यायः पर्वत्याः श्वनेत्रनिमीलनेन तमसाक्ष लोकपाप भयेन काञ्च्याम् कम्यास्थितैः काम्रतमे तपश्चर्याकरणार्थम् आगमनम् शिवविरहस्य। सनक उवाच भगवन्नरुणाद्रेश माहात्म्यमद्भुतम् श्रुतम् शिवप्रसादेन आश्चर्यमेतन्माहात्म्यम् सर्वपापविनाशनम् आराधयन् पुनः केव वरुणम् शोणपर्वतम्।
अनादिरन्तरहितः शिवशोणाचलाकृतिः युवयोस्तपसादेव वरदानाय संस्थितः सकृत्सङ्कीर्तिते नाम्नि शोणाद्रिति मुक्तिदे सन्निधिः सर्वकामानाम् जायते चाघनाशनम्।
शिवशब्दामृतास्वादाः शिवार्चनकथाक्रमः इति तद्वचनम् श्रुत्वा देवदेवः पितामहः उवाच करुणामूर्तेः अरुणाद्रीशमानर्मन्। ब्रह्मोवाच श्रूयताम् वत्सपार्वत्याश्चरितम् यत्पुरातनम् अरुणाद्रीशमाश्रित्य यथा सा निर्वृता भवत आससादमहादेवः कदाचित् पार्वतीपतिः।
रत्नसिंहासनम् दिव्यम् रत्नतोरणसंयुतम् रत्नपुष्पफलोपेत कल्पद्रुममनोहरम् परार्घ्यदृशवदास्तीर्णम् बद्धमुक्तावितानकम् विमुक्तपुष्पप्रपर दिव्यधूपोरु सौरभम्।
लम्बमालिका जाल निनदभृङ्गसङ्कुलम् दिव्यचूर्यघनादाव प्रदर्श्यद्भुवाहनम् पार्वती सिंहसञ्चार परित्रस्तमहागजम् अप्सरोभिः प्रदर्ताभिः गायन्तीभिश्च केवलम् आसेवितपुरोरङ्गम् दिक्पादकनिषेवितम् ऋग्यजुस्सामजैर्मन्त्रैः स्तुवद्भिर्मुनिपुङ्गवैः।
ब्रह्मर्षिभिस्तथा देवैः सिद्धैराजर्षिभिरुतम् गणैश्च विविधाकारैः भस्मालङ्कृतविग्रहैः रुद्राक्षधारसुभगैः आपूर्णम् शिवतत्परैः वीणा वेणु मृदङ्गादी तौर्य त्रिकच निःस्वनैः।
घण्टाटङ्कारसुभगैः वेदध्वनि विमिश्रितैः मनोहरम् महादिव्यम् आसनम् पार्वती सखः अलङ्चकार भगवान् भक्तानुग्रहकाम्यया आस्थाय विवलम् रूपम् सर्वतेजोमयम् शिवम् अम्बिकासहितः श्रीमान् विजहारदयानिधिः सङ्गीतेन कथाभेदैः द्यूतक्रीडाविकल्पनैः गणानाम् निकटैर्नृत्यैः रमयामास पार्वतीम् विसृज्य सकलान् देवाः ऋषींश्चापि सभासदः वरान् विसृज्य सकलान् देवान् ऋषींश्चापि सभासदः वरान् प्रदाय विविधान् भक्तलोकाय वाञ्छितान् आगमेषु विचित्रेषु सर्वर्तृकुसुमेषु च।
विजहारो मया सार्धम् रत्नप्रासादपङ्क्तिषु वापिकासुमनोज्ञासु रत्नसोपानपङ्क्तिषु केलिपर्वतशृङ्गेषु हेमरम्भावनान्तरे गङ्गातरङ्गशीतेन पुल्लपङ्कजगन्धिना वातेन मन्दगतिना विहारविहतश्रमः स्वकामतः स्वयम् देवः प्रेयसीम् अभ्यनन्दयत् रतिरूपाम् शिवाम् देवीम् सर्वसौभाग्यसुन्दरीम् कदाचिद्रहसि प्रीता निजाज्ञावशवर्तिनम्।
रमणम् जानति मुग्धा पश्चादभ्येत्य सादरम् कराभ्याम् कमलाभ्याभ्याम् त्रिनेत्राणि जगद्गुरोः पिदधे लीलया शम्भोः किमेतदिति कौतुकात् चन्द्रादित्याग्निरूपेण पिहितेष्वक्षिशुक्रमात् अन्धकारोऽभवत्तत्र चिरकारम् भयङ्करः निमिषार्धेन देवस्य जग्मुर्वत्सरकोटयः देवी लीला समुत्थेन तमसा भूज्जगत्क्षयः तमसा पूरितम् विश्वम् अपारेण समन्ततः।
शून्यम् ज्योतिः प्रचारेण विनाशम् प्रत्यपद्यत नव्यजृम्भन्त विबुध न च वेदाश्चकाशिरे नापि जीवास्तमभवन् अव्यक्तम् केवलम् स्थितम् जगतामपि सर्वेषामकाले वीक्ष्य संशयम् तपसा लब्धसूक्तीनाम् विचारस्तमपद्यत किमेतत्तमसो जन्म भुवनक्षयकारणम्
भगवानपि सर्वात्मा न नूनम् कालमाक्षिपत देवी विनोदरूपेण विधत्ते पुरजिद्गृशः तेनेदमखिलम् जातम् निस्तेजो भुवनत्रयम् अकालतमसा व्याप्ते सकले भुवनत्रये काकतिर्लब्धराज्यानाम् तपसा देवजन्मनाम् न यज्ञाः सम्प्रवर्तन्ते न पूज्यन्ते सुरा भुवि इति निश्चित्य मनसा वीक्षते ज्ञानचक्षुषा नित्यास्ते सूरयो भक्त्या शम्भुमानन्यतुष्टुभुः
नमः सर्वजगत्कर्त्रे शिवाय परमात्मने मायया शक्तिरूपेण पृथग्भावम् उपेयुषे अविनाभाविने शक्तिराज्यैका शिवरूपिणि लीलया जगदुत्पत्ति रक्षा संहृतिकारिणि अर्धाङ्गी सा तवदेव शिवशक्त्यात्मकम् वपुः एक एव महादेवो न परे त्वद्विना विभो
लीलया तव लोकोऽयम् अकाले प्रलयम् गतः करुणा तव निर्व्याजा वर्धताम् लोकवर्धनि भवतो निमिषार्धेन तेजसामुपसंहृतेः गतान्यनेकवर्षाणि जगताम् नाशहेतवे ततः प्रसीद करुणा मूर्ते कालसदाशिव विरमप्रणयादब्धात् अमुष्माल्लोकसंक्षयात् इति तेषाम् वचः श्रुत्वा भक्तानाम् सिद्धिशालिनाम् विसृजाक्षीणि गौरीति करुणामूर्तिरब्रवीत्
विससर्जि च सा देवी पिधानम् हरचक्षुषाम् सोमसूर्याग्निरूपाणाम् प्रकाशम् अभवज्जगत् कियान् कालो गतश्चेति पृष्टैः सिद्धैश्च वैगतैः उक्तम् त्वन्निमिषार्धेन जग्मुर्वत्सरकोटयः अथ देवः कृपामूर्तिरालोक्य विहसन् प्रियाम् अब्रवीत् परमोदारः परम् धर्मार्थसङ्ग्रहम्
अविचाजकृतम् मुग्धे भुवनक्षयकारणात् अयुक्तमिह पश्यामि जगन्मातुस्तवैव हि अहमप्यखिलाम् लोकान् सम्भरिष्यामि संशये प्राप्ते काले त्वया मौग्ध्यात् अकाले प्रलयम् गताः केयम् वा त्वादृशी कुर्यात् ईदृशम् सद्विगर्हितम् कर्म नर्मण्यपि सदा कृपामूर्तिर्नभाधते इति शम्भोर्वचः श्रुत्वा धर्मलोपभयाकुला किम् करिष्यामि तच्छान्त्या इत्यपृच्छत्स्मतम् प्रिया
अथ देवः प्रसन्नात्मा व्याजहारदयानिधिः देव्यास्तेनानुतापेन भक्त्या चतोषितः शिवः त्वन्मूर्तेस्तव केयम् वा प्रायश्चित्तिरिहोच्यते अथापि धर्ममार्गोऽयम् त्वयैव परिपाल्यते श्रुतिस्मृति क्रियाकल्पा विद्या च विबुधादयः त्वद्रूपमेतदखिलम् महदर्थोऽस्मि तन्मयः
मान्ययामिन्नया देव्या भाव्यम् लोकभिदृक्षया तस्मान्लोकानुरूपन्ते प्रायश्चित्तम् विधीयते षड्विधो गदितो धर्मः श्रुतिस्मृतिविचारतः स्वामिनानानुपाल्येत यदि त्याज्योऽनुजीविभिः न त्वाम् विहाय शक्नोमि क्षणमप्यासितुम् क्वचित् अहमेव तपः सर्वम् करिष्याम्यात्मनिस्थितः पृथ्वी च सकला भूयात्तपसा सफला तव त्वत्पादपद्मसंस्पर्शात् तत्तपोदर्शनादपि निरस्यन्ति स्वसन्निध्यात् दुष्टजातमुपद्रवम् कर्मभूमेस्त्वमाधिक्य हेतवे पुण्यमाचर त्वत्तपश्चरणम् लोके वीक्ष सर्वोऽपि सन्ततम्
मे दृढतरम् बुद्धिम् निबध्नीयान्न संशयः कृतार्थयिष्यति महीम् दयाते धर्मपालनैः त्वमेवैतत्सकलम् प्रोक्ता वेदैर्देवि सनातनैः अस्ति काञ्चीपुरी ख्याताम् सर्वभूतिसमन्विता या दिवम् देवसम्पूर्णाम् प्रत्यक्षेति भूतले यत्र क्लृप्तम् तपः किञ्चित् अनन्तफलमुच्यते देवाष्टमुनयः सर्वे वासम् वाञ्छन् सन्ततम् तत्र कम्पेति विख्यात महापातकनाशिनी यत्र स्थितानाम् मर्त्यानाम् कम्पन्ते पापकोटयः तत्र चूतद्रुमश्चैको राजते नित्यपल्लवः
सम्पूर्णशीतलच्छायाः प्रसूनफलपल्लवैः तत्र यत्तम् हुतम् दत्तम् अनन्तफलदम् भवेत् गणाश्च विविधाकारा डाकिन्यो योगिनी गणाः परितस्त्वाम् निषेवन्ताम् विष्णुमुख्यास्तथा पराः अहम् च निष्कलो भूत्वा तव मानसपङ्कजे सन्निधास्यामि मा भूस्त्वम् देवि मद्विरहाकुला इत्युक्ता देवदेवेन देवी कम्पान्तिकम् ययौव तपः कर्तुम् सखीयुक्ता विस्मयाक्रान्तलोचना कम्पाञ्च विमलाम् सिन्धु मुनिसङ्घनिषेविताम् आलोक्य कोमलदल नेकाम्ब्रम् दृष्टिवारणम् फलपुष्पसमाकीर्णम् कोकिलालापसङ्कुलम् प्रससाद पुनर्देवम् सस्मार च महेश्वरम्
कामाग्निपरिवीताङ्गे तपः क्षामेव सा भवत् अभ्यभाषत सा गौरी विजयाम् पार्श्ववर्तिनीम् कामशोकपरीताङ्गी पुरारिविरहाकुला
इममखहरमागतानिशम् स्वयमपि पूजयितुम् तपोभिरीशम् अयमभि रमपल्लवप्रसूनः स्मरयति माम् स्मरबन्धुरेकचूतः कथमिव विरह शिवस्य सख्यः क्षुभित धियात्रभृशम् मनोभवेन तदपि च तरुणेन्दुचूडपादस्मरणमहोंषधम् एकमेव दृष्टम् इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्याम् संहितायाम् प्रथमे माहेश्वरखण्डे अरुणाचलमाहात्म्ये पूर्वार्धे पार्वत्याः शिवनेत्रमीलनेन तमसा क्षुब्धलोकपापभयेन काञ्च्याम् कम्पास्थितैकाम्रतले तपश्चर्यार्थमागमनम् नाम तृतीयोऽध्यायः अथ चतुर्थोऽध्यायः विजया सान्त्वनया पार्वत्या तपः करणम् आकाशवाण्या गौतमऋषेः आश्रमगमनाय प्रेरणम् देव्यास्तत्र गमनम् ब्रह्मोवाच अथाभ्यधत्त विजया प्रणम्य जगदम्बिकाम् सान्त्वयन्ते स्तुतिशतैः उपायैः शिवदर्शनैः देवित्वमविना भूता तदा देवेन शम्भुना प्राणेश्वरी त्वमेकासि शक्तिस्तस्य परात्मनः
तथा मायाम् त्वमात्मीयाम् सन्दर्शयितुमीहसे पृथग्भावमिवेशानः प्रकाशयति न स्वयम् आदेशम् प्रतिगृह्यैव समुपेतासि पार्वती अलङ्घनीया सैवाज्ञा शाम्भवी सर्वदा त्वया विधातव्यम् तपः प्राप्तम् स्थानेऽस्मिन् शिवकल्पिते निवृत्य निखिलान् कामान् शम्भुमाश्रितया त्वया अन्यथापि जगद्रक्षा त्वदधीना जगन्मयी धर्मसंरक्षणम् भूयः शिवेन सहितम् तव
निष्कलम् शिवमत्यन्तम् ध्यायन्त्यात्मन्यवस्थितम् वियोगदुःखम् कश्चित्त्वम् न स्मरिष्यसि पार्वती भक्तानाम् तव मुख्यानाम् तवैवाचारसङ्ग्रहः उपदेशितया लोके यताम् धर्मवत्सले इति तस्य वचः श्रुत्वा गौरी सुस्थिरमानसा तपः कर्तुम् समारेभे कम्पानद्यास्तटे शुभे विमुच्य विविधा भूषा रुद्राक्षगणभूषिता विसृज्य दिव्यम् वसनम् पर्यधाद्वर्कले शुभे
अलकैः सा शिल्प मनयच्च कपर्दताम् अलिम्पत तनूम् सर्वाम् भस्मनामुक्त कुङ्कुमा मृगेषु कृत सन्तोषा शीलोंची कृतवृत्तिषु जजाप नियमोपेत शिव पंचाक्षरं परं कृत्वा त्रिश्रवणं स्नानं कंपापयसि निर्मले कृत्वा चैकतं लिंगं पूजयामास सादरम्।
वृक्ष प्ररोपणैर्दानैः अशेषातिथिपूजनैः शान्तिम् हरन्ति जीवानाम् देवी धर्ममपादयत। ग्रीष्मे पञ्चाग्निमध्यस्था वर्षा सुस्थण्डिवेशया हेमन्ते जलमध्यस्था शिशिरे चाकरोत्तपः। पुण्यात्मनाम् महर्षीणाम् दर्शनार्थमुपेयुषाम् विस्मयम् जनयामास पूजयामास सादरम्। कदाचित् स्वयमुच्चित्य वनान्तात् पल्लवान्वितम् पुष्पोत्करम् विशेषेण शोधितम् समुपविशत।
कृत्वा च सैकतम् लिङ्गम् कम्पारोधसि पावने सम्पूजयितुमारेभे न्यासावाहनपूर्वकम् सूर्यमभ्यर्च्य विधिवद्रक्तैः पुष्पैश्च चन्दनैः पञ्चावर्णसंयुक्तम् क्रमादानर्च्य शङ्करम् धूपैर्दीपैश्च नैवेद्यैः भक्तिभावसमन्वितैः अपरोक्षितमीशानम् आलोके पुरोहितम् अथ देवशिवः साक्षात् संशोधयितुमाम्बिकाम्। कम्पानद्याः प्रवाहेण महता पर्यवेष्टयत्।
अतिवृद्धम् प्रवाहन्तम् कम्पायाः समुपस्थितम् आलोक्य नयमासीनाम् आहुः सख्यस्तदाम्बिकाम्। उत्तिष्ठ देवि बहुलः प्रवाहोऽयम् विजृम्भते दिशाम् मुखानि सम्पूर्य तरसा प्रापयिष्यति इति तद्वचनम् श्रुत्वा ध्यायन्ति मिलिते क्षणा उन्मील्य वेगमतुलम् नद्यास्तम् समवैक्षता। अचिन्तयच्च सा देवी पूजा विघ्नसमाकुल किम् करोमि न शक्नोमि आत्मारब्धमर्चनम्। श्रेयः प्राप्तुमविघ्नेन प्रायः पुण्यात्मना भुवि पठते धर्मसंयोगो मनोरथफलप्रदः। सैकतम् लिङ्ग मथुर प्रवाहाल्लयमेष्यति लिङ्गनाशे विमोक्तव्यः सद्भक्तैः प्राणसङ्ग्रहः।
प्रवाहोऽयम् समायाति शिवमायाविनिर्मितः विशोधयितुमात्मानम् भक्तियुक्तम् निजे पदे आलिङ्ग्य सुदृढम् दौर्भ्यामेतल्लिङ्गम् अनाकुलम् अहम् वत्स्यामि याताशु सख्यो यूयम् विदूरतः। इत्युक्ता सैकतम् लिङ्गम् गाढमालिङ्ग्य साम्बिका नमुमोच प्रवाहेण वेष्ट्यमानापि वेगतः। स्तनचूचुकनिर्मग्नमुद्रादर्शितलाञ्छनम् महालिङ्गम् स्वसंयुक्तम् प्रणनाम तदादरात् निमीलिते क्षणाध्याननिष्ठैकहृदया स्थिता पुलकाञ्चित सर्वाङ्गी सा स्मरन्ति सदाशिवम्।
कम्पस्वेदपरित्राण
लज्जाप्रणयकेलिदात् क्षणमप्यचलालिङ्गान्नवियोगमपेक्षते।
अथ तामब्रवीत्काति दैवी वागशरीरिणी विमुञ्च बालिके लिङ्गम् प्रवाहोऽयम् गतो महान् त्वयार्चितमिदम् लिङ्गम् सैकतम् स्थिरभैरवम् भविष्यति महाभागे वरदम् सुरपूजितम् तपश्चर्याम् तवालोक्य रचितम् धर्मपालनम्। लिङ्गम् चैतन्नमस्कृत्य कृतार्थाः सन्तु मानवाः अहम् वितैजसंरूपमास्थाय वसुधातले वसामि चात्र सिद्ध्यर्थम् अरुणाचलसंज्ञया।
ऋणति सर्वलोकेभ्यः परुषम् पापसञ्चयम् ऋणो न विद्यते यस्मिन् दृष्टे तेनारुणाचलः। ऋषयः सिद्धगन्धर्वा महात्मानश्च योगिनः मुक्ता कैलासशिखरम् मेरुम् चैनमुपासते। मदंशजातयोः पूर्वम् युध्यतो ब्रह्मकृष्णयोः अहम् मोहमुपाकर्तुम् तेजो रूपो व्यवस्थितः। ब्रह्मणाहंसरूपेण विष्णुनाक्रोढरूपिण अदृष्टशेखरपदः प्रणतो भक्तियोगतः।
ततः प्रसन्न प्रत्यक्षस्ताभ्याम् वरमभीप्सितम् प्रादाम् जगत्त्रयस्यास्य संरक्षायान्तु कौशलम्। प्रार्थितश्च पुनस्ताभ्याम् अरुणाचलसंज्ञा अनैषितैः सम्रूपम् अहम् स्थावरलिङ्गताम् गत्वा पृच्छमहाभागम् मद्भक्तिम् गौतमम् मुनिम् अरुणाचलमाहात्म्यम् श्रुत्वा तत्र तपश्चराम् तत्त्वते दर्शयिष्यामि तेजसम् रूपमात्मनः सर्वपापनिवृत्त्यर्थम् सर्वलोकहिताय च इति वाचम् समाकर्ण्य निष्कलात् कथिताम् शिवात् तथेति सा देवी गन्तुम् समुपचक्रमे.
अथ देवान् ऋषीन् सर्वान् पश्चात् सेवार्थमागतान् अवादीदम् विकानोक्य स्नेहपूर्णेन चक्षुषा तिष्ठतात्रैव वैदेव मुनयश्च दृढव्रताः नियमाश्चाधितिष्ठन्तः कम्पारोधसि पावने सर्वपापक्षयकरम् सर्वसौभाग्यवर्धनम् पूज्यताम् सैकतम्बम् कुचकङ्कणलाञ्छनम् अहम् च निष्कलम् रूपम् आस्थायैतद्दिवानिशम् आराधयामि मन्त्रेण शोणेश्वरम् वरप्रदम्.
मत्तपश्चरणाल्लोके मद्धर्मपरिपालनात् मल्लिङ्गदर्शनाच्चैव सिद्धन्त्विष्ट विभूतयः सर्वकामप्रदानेन कामाक्षीमिति कामतः माम् प्रणम्यात्र मद्भक्ता लभन्ताम् वाञ्छितम् वरम् अहम् विदेवदेवस्य शम्भो रव्याहतो जनः आदेशम् पालयिष्यामि गत्वारुण महीधरम् तत्र गत्वा तपस्तीव्रम् कृत्वा शम्भुम् प्रसाद्य च माम् तु लब्धवराम् यूयम् पश्चाद् द्रक्षथ सङ्गताः इति सर्वान् विसृज्याशु सद्भक्तान् पादसेविनः अरुणाद्रिम् गता बाला तपसे शङ्कराज्ञया नित्याभिसेविताकारी सखीभिरभियोगतः आससादारुणाद्रीशम् दिव्यदुन्द्वविनादितम्.
अन्तस्तेजोमयम् शान्तम् अरुणाचलनायकम् अप्सरो नृत्यगीतैश्च पूजितम् पुष्पवृष्टिभिः प्रणम्य स्थावरम् लिङ्गम् कौतूहला समन्विता सिद्धानाम् योगिनाम् सार्धम् ऋषीणाम् चान्वैक्षत अत्रिरुद्रगुरुभरद्वाजः कश्यपश्चाङ्गिरास्तथा कुत्सश्च गौतमश्चान्ये सिद्धविद्याधरामराः तपः कुर्वन्ति सततम् अपेक्षितवराप्तये गङ्गाद्या सरितश्चान्याः परितः पर्युपासते.
दिव्यलिङ्गमिदम् पूज्यम् अरुणाद्रिरिति स्मृतम् बन्धस्वेति सुरैः प्रोक्त प्रणनाम पुनः पुनः अभ्यर्थिता पुनः सर्वैः आतिथ्यार्थे महर्षिभिः शिवाज्ञया गौतमो मे द्रष्टव्य इति सा वदत. अयमत्र ऋषि भक्तैः निर्दिष्टम् तमथाभ्यगात समुनिःशिवभक्तानाम् प्रथमस्तपसान्निधिः.
वनान्तरम् गतः प्रातः समित्कुशफलाहृतैः अतिथीनाश्रमम् प्राप्ता नर्चते च दृढव्रता शिष्यानादिश्य धर्मात्मा गतश्च विपिनान्तरम् अथ सा गौतमम् द्रष्टुमागता पर्णशालिकाम् वगतो मुनिरित्युक्तैरित आयास्यति क्षणात् शिष्यैरभ्यर्थितेत्युक्त्वा फलमूलैस्तु सुगन्धिभिः.
अभ्युत्थानेनासनेन पाद्येनार्घ्येण सूनृतैः वचनैः फलमूलेन सार्चिता शिष्यसम्पदा क्षणम् क्षमस्वेत्यूचस्तामन्ये जग्मुस्तदान्तिकम् देव्याम् प्रविष्टमात्रायाम् महर्षेराश्रमो महान् अभवत्कल्पबहुलो मणिप्रासादसङ्कुलः वनान्तरादुपावृत्य समित्कुशफलाहरः अपश्यत्स्वाश्रमम् दूरे विमानशतशोभितम् किमेतदिति साश्चर्यम् चिन्तयन्मुनिपुङ्गवः गौर्याः समागमम् सर्वम् अपश्यज्ञानचक्षुषा शीघ्रम् निवर्तमानोऽसौ द्रष्टुम् ताम् लोकमातरम् शिष्यैः शीघ्रजलैर्वृत्तमावेदितमथाश्रुणोत. अथ महर्षि रूपागतकौतुको निजतपः फलमेव तदागमम् शिवदया कलितम् ಪರಿಚಿಂತಯನ್ನ ಭಜದಾಶ್ರಮಮಾಶ್ರಿತ ವತ್ಸಲಃ ಇತಿ ಶ್ರೀಸ್ಕಾಂದೇ ಮಹಾಪುರಾಣೇ ಏಕಾಶೀತಿ ಸಹಸ್ರಾಂ ಸಂಹಿತಾಯಾಂ ಪ್ರಥಮೇ ಮಾಹೇಶ್ವರಖಂಡೇ ಅರುಣಾಚಲ ಮಹಾತ್ಮೇ ಪೂರ್ವಾರ್ಧೇ ಪಾರ್ವತ್ಯಾಃ ಕಂಪಾಯಾಃ ಅರುಣಾಚಲೇ ಗೌತಮಾಶ್ರಮಾಗಮನಂ ನಾಮ ಚತುರ್ಥೋಧ್ಯಾಯಃ